अथ चतुर्वेदोक्त आसीद वचनम् देवदेवोत्तम देवता सार्वभौम ब्रह्मांडनामकृषिगणगण्य सच्चिदानन्दात्मन् ऋग्वेद प्रिय ऋग्वेद सेवाम् अवधार
सविता पश्चात्तात् सविता पुरस्तात् सवितोत्तरात्तात् सविता पुरात्तात् सविता लस्वतसर्वतात् सविता लोहरासतात्मानस्सतं हे भूतान् शतमुपसन्तान् शतमिन्द्राग्नी सविता बृहस्पतिं सतायुषा हविषेमं भुनक्तुः दक्षिणावतामिदिमानि चित्रा दक्षिणावतां दिवि सूर्याः सह दक्षिणावन्तो अमृतं भजन्ते दक्षिणावन्त प्रतिरन्त आयुः सहस्राक्षेण शतशारदेन सतायुषा हविषाहार्षमेनम् शतं यथेमं शरधूनयातिन्द्रो विश्वस्य दुरितस्य पारम्
चतुर्वेदोक्त आसीद वचनम् देवदेवोत्तमदेवता सार्वभौम अखिलाण्डकोटि ब्रह्माण्डनायक ऋषिगणवन्द्य सच्चिदानन्दा